तृतीय स्कंधे दशमोध्याय दस प्रकार की सृष्टि का वर्णन। विग्रह उवाच अंतरहिते भगवते ब्रह्मालोक पितामहः प्रजा ससर्ज कतिधा दैहिकीर्मानशिर् विभुः ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तमा तान् वदस्वानुपूर्वेण छिन्भिनः सर्वसंशयान्। सुत उवाच एवं संचोदितस्तेन क्षत्रा कौसारवो मुनिः प्रीतः प्रत्याह तान् प्रश्नान् हृदयस्थान् अथ भार्गव। मैत्रे उवाच विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः आत्मन्यात्मानमावेश्य जदाह भगवान् अजः। तद्विलोक्याब्जसम्भूतो वायुना जदधिष्ठितः पद्मम् अम्भश्च तत्काल कृतवीर्येण कम्पितम् तपसा येदमानेन विद्यया चात्मसंस्थया विवृद्ध विज्ञानबलो न्यपाद वायुं सहाम्भसा। तद्विलोक्य वियद्व्यापि पुष्करम् जदधिष्ठितम् अनेन लोकान् प्राग्लीनान् कल्पितास्मित्यचिन्तयत् पद्मकोशं तदाविश्य भगवत्कर्म चोदितः। एकं व्यभाङ्क्षिद् उरुधा त्रिधा भाव्यं द्विसप्तधा एतावान् जीवलोकस्य संस्था भेदः समाहृतः धर्मस्य यन्निमित्तस्य विपाकः परमेष्ठ्यसौ। विदुर उवाच जदाथ बहुरूपस्य हरेरद्भुतकर्मणः कालाख्यं लक्षणं ब्रह्मन् यथा वर्णयनः प्रभो। मैत्रे उवाच गुणव्यतिकराकारो निर्विशेषो प्रतिष्ठितः पुरुषस्तदुपादानम् आत्मानं लीलया सृजत् विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया ईश्वरेण परिच्छिन्नम् कालेन व्यक्तमूर्तिना यथेदानीम् तथाग्रे च पश्चादप्येतदीदृशम् सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः अद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः। द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् चतुर्थ ऐन्द्रियसर्गो यस्तु ज्ञानक्रियात्मकः वैकारिको देवसर्ग पञ्चमो जन्मयम् मनः षष्ठस्तु तमसः सर्गो यस्तु बुद्धिकृतः प्रभो षड्मे प्राकृतः सर्गा वैकृतानपि मे शृणु। रजो भावो भगवतो लीलेयं हरिमेधसः सप्तमो मुख्यसर्गस्तु षड्विधस्तस्तु साञ्चयः वनस्पत्योषधिलता त्वक्सारा विरुधो द्रुमः उत्स्रोतसस्तमः प्राया अन्तःस्पर्शविशेषिणः तिरश्चामष्टमः सर्ग सोष्टाविंशद्विभो मतः अविदो भूरितमसो घ्राणज्ञः हृद्यवेदिनः गौरजो महिषः कृष्णः सूकरो गवयोरुरुः द्विसफा पशुश्चेमे अविरुष्टश्च सत्तम खरोस्वस्वतरो गौरः सर्वश्चमरी तथा एते चैकसफा छत्त शृणु पञ्चनखान् पशून् श्वाश्रृगालो वृको व्याघ्रो मार्जारः शस्यशल्लकौ सिंहः कपिर्गजः कुर्म गोधा च मकरादयः कङ्कगृध्रबटस्येन भासभल्लूकबर्हिणः हंससारश्चक्रावः काकोलूकादयः खगः अर्वाक्स्रोतस्तु नौम छत्तरेकविधो नृणाम् रजोधिकः कर्मपरा दुःखे च सुखमानिनः वैकृतास्त्रय एवैते देवसर्गश्च सप्तम वैकारिकस्तु यः प्रोक्तः कौमारस्तु भयात्मकः देवसर्गश्चाष्टविधो विबुधा पितरोऽसुराः गंधर्वापसरस सिद्धा यक्ष रक्षांसी चारण भूत प्रेत पिशाचाश्च विद्याध्रा किन्नरादय दशैते विद्राख्याता सर्गास्ते विश्वश्रीकृता अतः परम प्रवक्ष्यामि वंशान मन्वंतराणि च एवं रजः प्लुतः स्रष्टा कल्पा देश्वात्मभूर्हरिः सृजत्यमोघ संकल्प आत्मैवात्मानमात्मना इति श्रीमद्भागवते महापुराणे परमहंस्याम संहितां तृतीय स्कंधे दशमोऽध्यायः।